एषा रेडियो नेपालः सम्प्रति समाचारः श्रीयन्ताम् प्रवाचकः ध्रुव भट्टराई। सर्वकारण द्वन्द्वग्रस्ते इजरायल देशे विद्यमानानां नेपाली विद्यार्थिनां स्वदेशं प्रत्यानयनाय ह्यो विमानं प्रेषितं वर्तते। एतदनुसारेण विमानमिदं गतरात्रौ तत्र प्रस्थितमस्ति। तत्पूर्वं सिंहप्रसादवर्तिनी प्रधानमन्त्री मन्त्रिपरिषद कार्यालये ह्य उपविष्टेन मन्त्रिपरिषद उपवेशेन विद्यार्थिनाम् उद्धाराय नेपाल वायु सेवाय आरक्षणोड्डयन विमानं प्रेषयितुं निर्णीतम् आसीत्। आरक्षणोड्डयनस्य माध्यमेन परराष्ट्र मन्त्री एनपी साउद स्वयं इजरायल देशं गत्वा विद्यार्थिभि सहैव प्रत्यावर्तिष्यति इति उपवेशस्य पश्चात् विधि न्याय संसदीय विषय मन्त्री धनराज गुरूङ अज्ञापयत्। इजरायल देशस्य द्वन्द्वे निपत्य दिवंगतानां दश विद्यार्थिनां सवान् नेपालम् आनेतुम् अतिरिक्त समय लगिष्यति। मृतकानां जनानां डीएनए नाम्ना आनुवंशिक कोशिका तत्त्वस्य परीक्षण प्रवृत्ति कारणम् अवशिष्टत्वाद् इजरायल देशीय सर्वकारेण निर्धारितानां विधिगत प्रक्रियाणां पूर्णानन्तरमेव सभा आनेष्यन्ति इति मन्त्री गुरूङ असूचयत्। द्वन्द्वग्रस्ते इजरायल देशे विद्यमानै 50+73 अधिकै नेपाली नागरिकै अधुनावधि परराष्ट्र मन्त्रालयेन व्यवस्थितायम् अनलाइन सूचना सञ्जाल प्रणाल्यां स्वकीय विवरण प्रस्तुतं वर्तते। एवं विवरण प्रस्तुवताम् जनानां मध्ये 88+102 जनै नेपालं प्रत्यागन्तुम् इच्छितमिति विवरणे उल्लिखितमस्थिति परराष्ट्र मन्त्रालयो ज्ञापयति। मन्त्रालये गतदिने आयोजिते पत्रकार सम्मेलने मन्त्रालयस्य प्रवक्ता सेवा लम्सालः 50+104 अधिका नेपाली नागरिका इजरायलदेशे सन्तीति सूचयन्ति। तेषां विवरणं संकलय नेपालं प्रत्यागन्तुम् इच्छुकानां जनानां कृते प्रत्यागमनस्य प्रबन्धनाय नेपाल सर्वकार सक्रिय स्थिति अवोचत। इजरायल देशे विद्यमानानां 65+200 विद्यार्थिनां मध्ये द्वन्द्वग्रस्ते इजरायल देश दक्षिण भागे स्थितानां 17 विद्यार्थिनां मध्ये 10 घटनायां निपत्य मृता। विपिन जोशी नामा एको विद्यार्थी इदानीं यावत् सम्पर्कहीन वर्तते। जनद्वयस्य स्थानीय चिकित्सालय उपचार जायमानोऽस्ति। अतिरिक्त जनद्वयं गतदिने एव चिकित्सालय बहिर्भूतमिति प्रवक्ता लम्सालः अज्ञापयत्। तस्मात् क्षेत्रात् अवशिष्टौ द्वौ विद्यार्थिनौ पूर्वमेव सुरक्षित स्थाने स्थानान्तरितौ एवं सम्पर्कहीने स विपिन जोशिन अन्वेषण कार्यम् सञ्चालत अस्तीति परराष्ट्र मन्त्रालयो ज्ञापयति। अधिकार दुरूपयोग अनुसन्धान आयोगस्य प्रमुखायुक्त प्रेम कुमार राई संविधानस्य परिवर्तिता पश्चात् अनुकूलस्य आयोग सम्बद्धस्य संशोधिताधिनियमस्य आवश्यकतां दर्शयति। प्रतिनिधि सभा राज्य व्यवस्था सुशासन समितौ अधिकार दुरूपयोग अनुसन्धान आयोगाधिनियमस्य संशोधनाय निर्मितं विधेयकम् आधृत्य यो विहिते विमर्शने आयोगस्य प्रमुखायुक्त राई प्राक्तनै अधिनियमेन विधिभिश्च आयोगाय कार्य सम्पादनाय काठिन्यम् सृष्टम् अस्तीति अवोचत। उपवेशे संचार सूचना प्रविधि मन्त्री रेखा शर्मा विधेयक क्रियान्वयनस्य क्रियान्वयनाय बाध्यता सर्जनस्य च विषय सर्वकार प्रतिबद्ध स्थिति प्रावोचत। मन्त्री शर्मा भ्रष्टाचारम् रुद्धम् केवलम् आयोग एव न क्षम इत्यतः आत्मनैव भ्रष्टाचार नियन्त्रण प्रारभणीयमिति चर्चयन्ति। अधिकार दुरूपयोग अनुसन्धान आयोगाधिनियमम् संशोधयितुम् प्रस्तुतम् विधेयकम् सम्बद्धानाम् सर्वेषाम् पक्षाणाम् भावनाम् आत्मसात्कृत्या समृद्धम् विधातव्यमिति प्रत्यपादयत्। विधि न्याय मानवाधिकार समित्या सम्पत्ति शुद्धिकरण निवारण व्यावसायिक वातावरण प्रवर्धन सम्बद्धान कथित अधिनियमान संशोधयितुम् निर्मितम् विधेयकम् पारितीकृतम् वर्तते। समिते ह्यस्तनुपवेशे उपसमित्या अर्पितम् प्रतिवेदनम् आधृत्य विमर्शनानन्तरम् विधेयकमिदम् पारितीकृतम् अस्ति। उपसमित्या परह्य अर्पिते प्रतिवेदने विधेयके व्यक्तिगत सञ्चित धनस्य अधिकतम सीम्न 25 लक्षाणाम् निर्धारणत्वेन प्रस्तुतम् प्रस्तावम् न स्थापयितुम् सहमति धृता अस्ति। एवमेव समित्या द्युत क्रीडाशाला अन्तर्राष्ट्रिय सीम्न 5 किलोमिटर मितायम् दूर्यामेव सञ्चालनीय इति विषयम् समाविश्य विधेयकम् पारितीकृतम् अस्ति। उपवेशे विधि न्याय संसदीय विषय मन्त्री धनराज गुरूङ गृहभूमि व्यवसायन सहकारी संस्थाभिश्च सम्बद्धेषु आवश्यक विधिषु प्रारूपम् मन्त्रालय निर्मास्यते। विधि मन्त्रालय प्राप्त तथा विधय अवरोध्य न स्थाप्यन्ते इति प्रावोचत। कृषि उत्पादनानां वर्धनाय तत्र विश्वासं वर्धयितुं च सर्वकारेण तत्कालं कृषि अधिनियम आनेतव्ये इत्यत्र सांसदः बलं ददति। प्रतिनिधि सभा कृषि सहकारी प्राकृतिक स्रोत समिति ह्य सिंह प्रासादे उपविष्टे उपवेशे सांसद कृषि व्यवसाय समृद्धं विधातुं नीतिगत सुधाराय बलं प्रदाय सर्वकारेण कृषि अधिनियमस्य प्रारूपं निर्मातुं विहितं विलम्बनं प्रति असन्तुष्टिं प्राकटयन्। उपवेशे समिति सभापति डाक्टर आरजु राणा कृषि व्यवसाय यूनाम आकर्षण वर्धयितुं कृषि व्यवसायस्य अध्ययनम् अनुसन्धानम् च विधेय इत्यत्र बलं प्रददति। निर्माण प्रारूपं कृषि अधिनियमं विमृश समित्यै परामर्शनं प्रदास्यते इति उदयरयत्। राष्ट्रपति रामचन्द्र पौडेलः प्राविधिक क्षेत्रे पर्याप्त मात्रायां निवेशनेन वैज्ञानिकीं व्यवस्थापिकीं च जनशक्तिं उत्पादयितुं बलं ददाति। काष्ठमण्डप विश्वविद्यालयस्य नेपाल प्रविधि नव प्रवर्तन केन्द्रस्य भवनं ह्य काभ्रे पलाञ्चोक जनपदस्य धूलिखेलस्थाने उद्घाटन राष्ट्रपति पौडेलः भावी सन्ततिं प्रविधि युक्तां विश्वापणे प्रतिस्पर्धिनीं च विधातुं आवश्यकमस्तीति उदयरयत्। राष्ट्रपति पौडेल कृषि स्वास्थ्यस्य ऊर्जस्य विशिष्टानुसन्धानं विधातुं बलं प्रादात्। भेप नाम्ना वैद्युत तम्बाकू बट्टिकायां संगोप्य विहितस्य स्वर्ण तस्करस्य आरोपे जनचतुष्टयस्य विरूद्धे ह्य काष्ठमण्डप जनपद न्यायालये न्यायिक प्रकरणं पञ्जीकारितं वर्तते। संघटितापराधस्य सीमाशुल्क प्रवञ्चनस्य च आरोपेण पूर्व सभामुखस्य कृष्ण बहादुर महरा इत्यस्य पुत्रस्य रेशम बहादुर इत्युपनाम्नो राहुल महराविदस्य काष्ठमण्डपस्य लोकेन्द्र कुमार पौडेलस्य कपुरधारा निवासिन बेल्जियम देशीय नागरिकस्य दावा सिंह इत्यस्य काष्ठमण्डपस्य बौद्ध निवासिन निमा गुरूङ इत्यस्य च विरूद्धे न्यायिक प्रकरणं पञ्जीकारितमिति काष्ठमण्डप जनपद सर्वकारी अधिवक्तृ कार्यालयस्य प्रमुख सह न्यायाधिवक्ता अच्युतमणि न्यौपाने अज्ञापयत्। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली इजरायल देशे अवरूद्धै नेपाली विद्यार्थीभिः सह अन्य नागरिकान् शीघ्रातिशीघ्र उद्धर्तम् सर्वकारम् अभियाचते। नेकपा एमाले दलस्य मधेस प्रदेश समिति प्रथमाधिवेशनस्य उद्घाटनाय जनकपुर धाम प्राप्त अध्यक्ष ओली यो जनकपुर विमानस्थले पत्रकारैसह भाषमाण युद्धग्रस्त क्षेत्रात् शीघ्रातिशीघ्र नेपालिन उद्धर्तम् सर्वकारम् अभ्याचत। नेकपा एकीकृत समाजवादी दलस्य अध्यक्ष माधव कुमार नेपालः सत्ता गठबन्धनम् उचित दिशि सञ्चालितुं स्वस्य दलेन प्रेरमाणं वर्तते इति भासते। नेकपा एकीकृत समाजवादी दलेन प्रारब्धस्य समाजवादी जागरण अभियानस्य अन्तर्गतम् ह्य बाँके जनपरिषद कोहलपुरस्थाने आयोजितं जनसभां सम्बोधयन् अध्यक्षो नेपालः सर्वकारम् जनताय दुःख पीडासु केन्द्रितम् भूत्वा कार्यम् विधातम् अनुरुणत। जनसभा दलस्य वरिष्ठ नेत्रा पूर्व प्रधानमन्त्रिणा च झलनाथ खान अलेन महासचिवेन घनश्याम भूषालेन च सम्बोधिता आसीत्। इति समाचारः।